सोमस्य मातप संवक्षग्देवह्निम् जगर्थ विदधे यजध्यै देवाङ्गच्छादीद्यद्युञ्जे अद्रिम् समाजे अग्ने तन्वम् जुडस्व प्राञ्जम् यज्ञम् च क्रममर्धदाङ्गी समिद्भिरग्निम् ममसाधुपश्यन् दिवस सादुर्विदधा कवीनाम् कृत्सा यजित्तपसे गातुमीषुः मयो दधे मे धीरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः अविन्दन्नदर्शतमत्स्वा अन्तर्देवासो अग्निमपसि स्वसृणाम् अवर्धयन् सुभगम् सप्तजग्मी श्वेतम् जज्ञानमारुढम् वाहित्वा सुषुम्नजातमभ्यारुढस्वाहा देवासोः अग्निम् जनीमन्वपुष्यन् शुक्रेभिरङ्गैरज आततन्वान् क्रतुम् पुराणः कविभिः पवित्रैः शोचिर्वसा नः पर्यायोरपाम् श्रियो विनीते बृहतीरनूनाः वव्राजासीमनदतीरदब्धा दिवो जह्मीरवसानाग्नाः स नात्र युवतयस्रयो नीरेकम् गर्भम् दधिरे सप्तवाणीः स्तीर्णास्य संहतो विश्वरूपाघृतस्य यो नो सर्वधे मधूना अस्तुरत्र धेनवः पिन्वमानामहीदस्मस्य मातरा समीची अभ्राणस्तू नो सहसो व्यद्योद्धारशुक्रारभसापुंषि स्तोदन्ति धारामधूनो घृतस्य मृषा यत्र वा मृधे काव्येन विदुश्चलूधर्जनुषा विवेदव्यधारा असृजद्विधेनाः गुहाचरन्तम् सखेभिः शिवेभिर्दिवो जग्मीभिर्न गुहा बभूव ऋतश्च गर्भम् च ऋतश्च बभ्रे पूर्वीरेको अधयद्वीत्यानाः वृक्षे सवत्रेषु च जेतबन्धो उभे अस्मै मनुष्ये एरिपाहि उरौ महाङ्गानि बाधेव बद्धापो अग्निम् यशसस्सं हि पूर्वीः ऋतस्योरावस यद्दमो राजा मीनामग्निरपसि स्वसृणाम् अक्रो न भग्भिः स विजे महीलाम् वृक्षे यः सू न मे भारजीकः उदुसृजा जनीतायो जजानापाम् गर्भो ऋतमो जह्वो अग्निः अपाम् गर्भम् दर्शनमोराधीनाम् मनाजानसुभगाविरूपम् देवासस्तिन्मनसा संयजग्मः पनिष्टम् जातम् तपसम् दुपश्यन् बृहन्तयद्भानभोधारजीकमग्निम् स जन्तभिद्युतो न शुक्राः गुहेव वृद्धम् ददशिष्वे अन्तर पारभूर्वे अमृतम् दुहानाः ईरे चत्वारिजमानो हरिभिरीरे सखित्वम् सुपतिम् निकामः देवैरवो विवीहिसञ्जरित्रे रक्षा च नोदम्येभिरणीकैः उपक्षेतारस्तव सुप्रणीते द्वे विश्वानि धन्यादधानाः सुवेदशास्त्रवसातुञ्जमाना अभिष्यामवृतनायोङ्ग्रदेवान् आदेवानामभवः केतुरग्ने मन्त्रो विश्वाहानि काव्याहानि विद्वान् प्रतिमत्ताङ्गवासयोधमो नानो देवाङ्गशिरोयासि साधन् नियोधो मे अमृतमत्यानाम् राजा ससाधवितथानि साधन् ऋतप्रतीकमुर्व्याव्याद्योदग्निर्विश्वानि काव्याहानि विद्वान् आनोभिः सख्येभिः शिवेभिर्महान्महीभिरुजिभिः शरण्यन् अस्मे रयम् बहुलम् सन्त रुत्रम् सुवाचम् भागम् यशसम् कृधीनः एताते अग्ने जनि वासनानि प्रभूर्व्याजनूतनानि वोचम् महान्तिलक्ष्मे तव कृते मा जन्मन् जन्मन्निहितो जातवेदाः जन्मन् जन्मन्निहितो जातवेदा विश्वामित्रेभिरुद्यते अजस्रः तस्य वयम् तु मतो यज्ञयस्यापि भद्रेधौ मनसे स्याम इमम् यज्ञम् सारदा भन्पर्णा दे भद्राधेहि शुक्रदोरराणः रयम् शिवोदृहैर्योग्ने महेन्द्रवीरमायजस्व इलामग्ने पुरुदम् सम् सलिङ्गाश्वत्तमम् गमानाय साध स्यान्नः सूनस्तनयो विजावाग्ने साधे सुपतिर्भूत्वस्मे